नमस्सर्वेभ्यः। अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे तत्पुरुषसमासस्य पञ्चमः पाठः। अद्य वयं द्विगुसमासस्य विषये पश्यामः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। मूलं किञ्चित् पठित्वा अग्रे गच्छामः। नीरजा भगिनी पठति वा?
चतुर्थ्यन्तार्थाय यत्तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् यूपादारु तदर्थेन प्रकृतिविकृतिभाव एव इष्टः। तेन इह न रन्धनाय स्थाली अर्थेन नित्यसमासो विशिष्य
अलिङ्गता
शेषलिङ्गता चेति वक्तव्यम्। द्विजार्थः सूपः द्विजार्थायवागूः द्विजार्थं पयः भूतबलिः गोहितं गोसुखं गोरक्षितम्।
सम्यक्। राघवी
पञ्चमी भयेन चोराद्भयं चोरभयं सोपान्तिकदूरार्थकृत्स्नानित्येन पञ्चम्याः स्तोकाद्भ्यः। अलुत्तरपदे स्तोकान्मुक्तः अन्तिकादागतः अभ्यासादागतः दूरादागतः कृत्स्रादागतः षष्ठी सुबन्तेन प्राग्वत् राजपुरुषः पूर्वापराधर उत्तरम् एकदे।
धन्यवादः। शुभा भगिनी
पूर्व अपर अधर उत्तर उत्तरम् एकदेशिना एकाधिकरणे अवयविना सह पूर्वादयः समस्यन्ते एकत्वसङ्ख्याविशिष्टश्चेत् अवयवी। षष्ठीसमास अपवादः पूर्वं कायस्य पूर्वकायः अपरकायः एकाधिकरणे किं पूर्वच्छात्राणाम् अर्धं नपुंसकं समांशवाचि अर्धशब्दः नित्यं क्लीपे स प्राग्वत् अर्धं पिप्पल्याः अर्धपिप्पली।
सम्यक्। सुधा
सप्तमी शौन्दैः सप्तम्यन्तं शौन्दादिभिः प्राग्वत् अक्षेषु शौन्दः अक्षशौन्द इत्यादि द्वितीया तृतीया इत्यादि योगविभागात् अन्यत्रा अपि तृतीयादिविभक्तीनां प्रयोगवशात् समासो ज्ञेयः। दिक्सङ्ख्ये संज्ञायाम् एव इति इतमार्थं सूत्रम्। पूर्वेषु कामसप्तर्षयः तेनेह न उत्तरा इक्षाः पञ्चब्राह्मणाः।
सम्यक्। गतवर्गे दिक्सङ्ख्ये सामान्यतत्पुरुषः समाप्तः। द्वितीयातः आरभ्य सप्तमीपर्यन्तं सामान्यतत्पुरुषविधायकानि सूत्राणि अधीतानि। अग्रे दिक्सङ्ख्ये संज्ञायाम् इत्यनेन दिग्वाचकानां संज्ञावाचकानां च संख्यावाचकानां च संज्ञायां समासः भवति समानाधिकरणेन। अस्य विशिष्य किमपि नाम न दत्तम्। वस्तुतः वयं तत्पुरुषं पश्यामः चेत् तत्पुरुषस्य नामकरणं पश्यामः चेत् द्वितीया तत्पुरुषः तृतीया तत्पुरुषः इत्यादीनि नामानि तां विभक्तिम् आश्रित्य क्रियन्ते। एवमेव नञ् उपपदसमासः, यत्र उपपदम् अतिङ् इत्यनेन समासः विधीयते सः उपपदसमासः. कु गतिप्रादयः इत्येवम् अस्ति. पाणिनिना विशिष्य तत्पुरुषसमासे नामद्वयमेव दीयते, एकः कर्मधारयः अपरः द्विगुः. द्विगुसमासस्य अद्य अग्रे पश्यामः. ततः पूर्वम् अन्यः अन्यत् सूत्रमस्ति, तत्पुरुषः समानाधिकरणः कर्मधारयः. कर्मधारयसमासः कः? यत्र यत्र तत्पुरुषसमासे समानाधिकरण्यं भवति. गतवर्गे वयं समानाधिकरण्यस्य विषये ज्ञातवन्तः. समानम् अधिकरणं ययोः, यत्र विशेषणविशेष्यभावः अस्ति अथवा पूर्वोत्तरपदयोः समानविभक्तिकत्वमस्ति, तत् समानाधिकरण्यम्. तत्पुरुषः समानाधिकरणः कर्मधारयः. यत्र यत्र तत्पुरुषसमासे पूर्वपदम् उत्तरपदं च समानविभक्तौ अस्ति, सः समासः कर्मधारयसमासः इति अग्रे वक्ष्यते. अद्यैव अग्रे अस्ति. अतः अयं समासः दिक्संख्ये संज्ञायाम् इत्यनेन संज्ञायां दिग्वाचकानां संख्यावाचकानां च यः समासः क्रियते सः कर्मधारयसमासः. कर्मधारयसमासस्य बहूनि सूत्राणि सन्ति, तत्र इदमपि अन्तर्भवति. एवं पूर्वेषु कामशमी सप्तर्षयः, सप्तर्षयः इत्यत्र कर्मधारयसमासः भवति. इह न, यत्र तु संज्ञावाचकत्वं नास्ति तत्र केवलं विशेषणविशेष्यभावे समासः न भवति, दिग्वाचकानां संख्यावाचकानाम् इत्यपि ज्ञातवन्तः. यथा उत्तराः वृक्षाः, पञ्च ब्राह्मणाः, अत्र समासः नास्ति. अत्र विवरणात्मकानि प्रश्नानि भवन्तु. हा, अवगमनार्थं कानिचन वाक्यानि दत्तानि. विष्णुः दशावतारैः लोकान् ररक्ष इत्यस्ति. दशावतारैः एकैकशः वदन्ति वा? मातङ्गि दशावताराः समासः भवति वा न वा? कुत्र समासः भवति? यदि संज्ञा तर्हि समासः भवति, भवति यतोहि दश अवताराः, इट् इस् अ स्पेसिफिक् नेम् फार् ओन्ली दोस् 10 अवतारस्, नाट् एनी जनरल् 10 अवतारस्. अतः दशावतारैः इत्यत्र समासः भवति, वाक्यं साधु. विग्रहः कथं दशावतारैः? दश अवताराः तैः. तत्र यदा कर्मधारयसमासे विग्रहः वक्तव्यः तत्र द्वेधा रीतिः अस्ति. अत्र तृतीया विभक्तिः अस्ति दशावतारैः. तदा किं कर्तुं शक्यते? दशभिः अवतारैः विभक्तिः तुल्यं भवेद् उभयत्र. अतः उभयत्रापि तृतीया विभक्तिम् उपयुज्य दशभिः अवतारैः इत्यपि वक्तुं शक्यते. दश अवताराः तैः इत्यपि वक्तुं शक्यते. कर्मधारयसमासे उभयथापि रीतिः दृश्यते. अन्येषु समासेषु सर्वदा किं कुर्मः? वयं प्रथमाविभक्तौ एव विग्रहं वदामः, अनन्तरम् अन्यस्य सर्वनाम्नः योजनं कुर्मः. यथा राजपुत्रस्य नाम रामः इति उक्ते राज्ञः पुत्रः राजपुत्रः तस्य राजपुत्रस्य, एवमेव दश अवताराः दशावताराः तैः इति प्रथमाविभक्तौ विग्रहम् उक्त्वा सर्वनामपदेन विभक्तिः निर्देष्टुं शक्यते. इयमेव रीतिः सामान्यतः दृश्यते. सो दिस् इस् मोर् कामन् एण्ड् ईजि. प्रथमाविभक्तौ विग्रहकथनं सुलभं, यतोहि अन्यासु विभक्तिषु यदि विग्रहः वक्तव्यः तर्हि तत्तद्विभक्तिरूपं सम्यक् ज्ञातव्यम्. दश इत्यस्ति, दशैः अवतारैः वा दशभिः अवतारैः वा, तत्र दशन् इति नकारान्तः, यथा राजभिः एवं दशभिः. अतः तत्तद्विभक्तिरूपं ज्ञातव्यम्. प्रथमाविभक्तिः तु सरलतर, इट् इस् ईजियर् एण्ड् इट् इस् आल्सो मोर् एक्सेप्टेड्. अतः प्रथमाविभक्तौ विग्रहम् उक्त्वा अन्ते सर्वनामपदस्य योजनं कर्तुं शक्यते. साक्षात् ताम् विभक्तिम् उपयुज्य विग्रहः उच्यते चेदपि दोषाय नास्ति। कर्मधारयसमासे समानाधिकरण्यम् अस्ति चेत् तथा कर्तुं शक्यते। अतः दश अवताराः तैः अथवा दशभिः अवतारैः। अनुपस्थितेभ्यः पञ्चबालकेभ्यः सन्देशं प्रेषय। नीरज भगिनि,
अत्र समासः अशुद्धम् अशुद्धं बिकास् पञ्चबालकेभ्यः इस् नाट् अ वेरि कामन्
इट् इस् नाट् एट् आल् कामन् मीन् इट् इस् नाट् स्पेसिफिक् टु फैव् बाय्स् एनी फैव् बाय्स् या किं वक्तव्यं
पञ्चेभ्यः बालकेभ्यः पञ्चभ्यः
बालकेभ्यः पञ्चन् सो दट् इस् आल्सो लैक् राजन् सो पञ्चभ्यः बालकेभ्यः सन्देशं प्रेषय। यस् माताजि नो क्वेश्चन्
नो माताजि
नेक्स्ट् राघवी षडङ्गैः सहितानां चतुर्वेदानाम् अध्ययनं नियमेन कर्तव्यम्।
षडङ्गानि षडङ्गानि तैः चतुर्वेदाः
चतुर्वेदाः तेषां षट् अङ्गानि षडङ्गानि तैः वेदस्य षडङ्गानि षडङ्गानि इति संज्ञा शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं कल्पः एते एव षडङ्गानि अन्यत् किमपि नास्ति। अतः षडङ्ग इति संज्ञा अतः समासः भवति षट् अङ्गानि तैः अथवा षड्भिः अङ्गैः। चतुर्वेदाः अपि प्रसिद्धाः ऋग्वेदः यजुर्वेदः सामवेदः अथर्वणवेदः। अतः चत्वारः वेदाः तेषां चतुर्णां वेदानाम् उभयथापि शक्यते। अग्रे शुभा भगिनि एतत् गृहकार्यं सप्तदिनेषु समापनीयम्।
अत्र तु समासः न भवति सप्तसु दिनेषु
सप्तसु दिनेषु अथवा सप्तदिनानि तेषु सप्तसु दिनेषु सप्तदिनानि तेषु सोरि समासः न भवति अतः सप्तसु दिनेषु इत्येव सप्तसु दिनेषु समापनीयं। सप्तदिनानि केन् बि एनी सेवेन् डेस् इट् इस् नाट् स्पेसिफिकलि दट् दीस् आर् द सेवेन् डेस्। अतः संज्ञावाचकत्वं नास्ति इत्यतः समासः न भवति। एतद् गृहकार्यं सप्तसु दिनेषु समापनीयम् इत्येव वक्तव्यम्। अग्रे सुधा
शतजनाः इवन् नाट् समासः डस् नाट् हेपन् हियर् इट्स् नाट् इन् पर्टिक्युलर् संज्ञावाचक आल्सो इट्स् नाट् हियर्
करेक्ट्
शतजनाः
शतजनाः अत्र संख्यानां विषये इतोपि एकः विषयः प्रसङ्गात् वदामि। संख्यानां प्रयोगे किञ्चित् क्लेशः अस्त्येव संस्कृते। एतत्तु ज्ञातवन्तः एकशब्दः नित्यम् एकवचनान्तः। लिङ्गविषये ज्ञातवन्तः एकं द्वे त्रीणि चत्वारि लिङ्गस्य विषये वचनस्य विषये उभयं ज्ञातव्यम्। आदौ लिङ्गं पश्यामः एकः एक एकं द्वौ द्वे द्वे त्रयः तिस्रः त्रीणि चत्वारः चतस्रः चत्वारि एतेषु लिङ्गभेदः अस्ति। अतः एकः बालः एकः एका बालिका एकं फलं भेदः अस्ति। पञ्चतः आरभ्य नवदशपर्यन्तं लिङ्गभेदः नास्ति। पञ्चबालकाः पञ्च बालिकाः पञ्चफलानि समानं भवति। त्रिषु लिङ्गेषु अपि रूपं समानं भवति। लिङ्गत्रयं भवति किन्तु त्रिषु लिङ्गेषु रूपं समानं भवति। तदनन्तरं विंशतिः त्रिंशत् चत्वारिंशत् इत्यादिषु स्त्रीलिङ्गं भवति. विंशतिः इति आरभ्य नवनवतिः एतत्पर्यन्तं सर्वे शब्दाः स्त्रीलिङ्गे. विंशतिः, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः, नवतिः, नवतिपर्यन्तं सर्वमपि स्त्रीलिङ्गे एव. तत् किं वा भवतु इत्युक्ते विंशतिः बालकाः, विंशतिः बालिकाः, विंशतिः फलानि, विशेष्यं किं वा भवतु, सङ्ख्यावाचकः शब्दः स्त्रीलिङ्गे एव भवति. तत्र लिङ्गभेदः पुनः नास्ति. शतम् इत्यारभ्य नपुंसकलिङ्गं भवति. शतं, सहस्रम् इत्यादि सर्वमपि नपुंसकलिङ्गे भवति इति लिङ्गविषये. वचनविषये अपि एकशब्दः नित्यम् एकवचनान्तः, द्विशब्दः नित्यं द्विवचनान्तः, त्रि इत्यारभ्य नवदशपर्यन्तं नित्यं बहुवचनान्ताः, देयर् प्लूरल्, तत्तु सामान्यतः ज्ञायते. किन्तु पुनः विंशतिः इत्यारभ्य सर्वेषामपि शब्दानाम् एकवचनान्तत्वम् एव. अतः शतं जनाः, तत्र अस्माकं विशेषणविशेष्यभावः कार्यं न करोति. यदि अन्यैः अन्यासु विभक्तिषु उपयुज्यते, यथा शतं जनाः सन्ति तैः सौन्दर्यलहरी पठिता, कथं वक्तव्यम्? शतेन जनैः सौन्दर्यलहरी पठिता. तत्र शतशब्दः नपुंसकलिङ्गे एकवचने एव भवति. जनाः इति तु जनैः सामान्यतः बहुवचने, अतः शतं जनाः, शतेन जनैः, शताय जनेभ्यः, शतात् जनैः, शतस्य जनानां, तत्र भेदः अस्ति. एवमेव विंशति इत्यारभ्य सर्वत्र तथैव. विंशतिः बालकाः, तेषाम् इत्युक्ते विंशतेः बालकानां, विंशतेः इत्यत्र एकवचनं भवति, बालकानाम् इत्यत्र बहुवचनं भवति. विशेषप्रयोगः अस्माभिः टु अवाय्ड् दट् समासकरणं सुलभम् इति भासते, किन्तु समासः नास्ति, समासविधायकं सूत्रं नास्ति इत्यतः क्लेशः. एतादृशप्रयोगान् यदा कुर्मः तदा जागरूकतया कर्तव्यं, विशिष्य अन्यासु विभक्तिषु. अतः यदि भोजनं दीयते, शताय जनेभ्यः भोजनं दीयते इत्येव वक्तव्यम्. एवं सहस्रस्य जनानाम् इत्येवं सर्वत्र भवति. अन्ये अपि विशेषाः सन्ति सङ्ख्यानां प्रयोगे. इदानीं प्रसङ्गात् अत्र उक्तं शतं जनाः, अत्र कथं वक्तव्यं? कार्यक्रमे शतं जनाः समागताः. अग्रे कालिदासः नवरसानाम् उपयोगं सम्यक् करोति. विजया भगिनी प्रयत्नं करोति वा? न श्रूयते. Can you check your microphone? I'm unable to hear. I'm not sure if it's again. Maybe there is some audio this time. Matangi.
Navarasaha
tesham. Navarasaha iti samgya. शृङ्गार वीरकरुण हास्यरौद्रभयानकाः विभत्सार्भुतशान्ताः इत्येवं नवरसाः प्रसिद्धाः. संज्ञा, अतः समासः भवति नवरसाः तेषाम् अथवा नवानां रसानाम् इति भवति. तेन द्वादशश्लोकैः भगवत्याः अर्चनं कृतं. राघवी, द्वादशभिः श्लोकैः, द्वादश इत्यपि नकारान्तः, नकाराजभिः तथा द्वादशभिः श्लोकैः समासः न भवति. बिकास् 12 श्लोकास् इस् नाट् अ फिक्स्ड् श्लोक, इट् कुड् बि एनी 12 श्लोकास्. अतः अत्र समासः न भवति. द्वादशभिः श्लोकैः भगवत्याः अर्चनं कृतम्. वानरैः अष्टदिक्षु अपि सीतायाः अन्वेषणं कृतम्.
अष्ट दिशः तेषु
तासु
तासु
दिक् शब्दः स्त्रीलिङ्गे अतः अष्टदिशः अथवा अष्टौ दिशः तासु अष्टदिशः अपि प्रसिद्धाः पूर्वा आग्नेयी दक्षिणा नैऋति पश्चिमा वायवी उत्तरा ईशानी इति एताः एव अष्टदिशः अष्टदिक्षु इत्यत्र समासः भवति अष्टदिशः तासु अथवा अष्टसु दिक्षु इदानीम् अग्रे द्विगुसमाससूत्रं पश्यामः सङ्ख्यावाचकस्य प्रसिद्धः समासः द्विगुः द्विगुसमासविधायकं सूत्रम् इदं तद्धितार्थोत्तरपदसमाहारे च इति सूत्रं तद्धितार्थ उत्तरपदसमाहारे इति सप्तमी विभक्तिः च इति अव्ययं दिक्सङ्ख्ये इति अनुवर्तते समानाधिकरणेन इत्यपि अनुवर्तते समासः सुप्सुपा तत्पुरुषः इदं विधिसूत्रम् अनेन कर्मधारयसमासः द्विगुसमासः उभयमपि अत्र अस्ति तद्धितार्थोत्तरपदसमाहारे च कः अर्थः दिक् सङ्ख्ये पुनः अत्रापि दिग्वाचकानां सङ्ख्यावाचकानां समासः उच्यते पूर्वसूत्रेण किमुक्तं दिग्वाचकानां सङ्ख्यावाचकानां समानाधिकरणेन समासः भवति संज्ञायाम् इति उक्तम् इदानीम् अत्र किमुच्यते तद्धितार्थ उत्तरपदसमाहारे च एतेषु अर्थेषु अपि दिग्वाचकानां सङ्ख्यावाचकानां समासः भवति केषु अर्थेषु तद्धितार्थे उत्तरपदे समाहारे संज्ञा अस्ति एवं तद्धितार्थे उत्तरपदे समाहारे अपि दिग्वाचकानां सङ्ख्यावाचकानां समासः भवति इति अनेन सूत्रेण उच्यते कः अर्थः इति अग्रे जानीमः आदौ अत्र पश्यामः दिक् सङ्ख्या इति द्वयमस्ति पूर्वपदं दिग्वाचकम् अथवा सङ्ख्यावाचकं भवति सो उभयोः त्रेधा भवति सो देर् आर् सिक्स् आप्शन्स् हियर् दिग्वाचकानां तद्धितार्थे समासः दिग्वाचकानाम् उत्तरपदे दिग्वाचकानां समाहारे एवं सङ्ख्यावाचकानां तद्धितार्थे सङ्ख्यावाचकानाम् उत्तरपदे सङ्ख्यावाचकानां समाहारे एवं षोडा समासः अनेन सूत्रेण सम्भवति तत्र दिग्वाचकानां यः समासः सः कर्मधारयसमासः उदाहरणानि आदौ पश्यामः अनन्तरं प्रक्रियादिकं पश्यामः तद्धितार्थे तद्धितार्थे इत्यस्य कः अर्थः तद्धितस्य अर्थः तद्धिताः इति प्रत्ययाः जानीमः वयं सुबन्तेभ्यः विशिष्टेषु अर्थेषु तद्धितप्रत्ययाः भवन्ति दशरथस्य अपत्यं दाशरथिः धनम् अस्य अस्ति इति धनवान् जनानां समूहः जनता इत्येवं बहुषु अर्थेषु तद्धितप्रत्ययाः भवन्ति प्रायः शताधिकेषु अर्थेषु तद्धितप्रत्ययाः भवन्ति तद्धितार्थे तद्धितार्थे इत्यस्य कः अर्थः यदा अग्रे तद्धितप्रत्ययः भविष्यति तदा दिग्वाचकानां समासः भवति उदाहरणं दीयते पूर्वस्यां शालायां भवः भवार्थे तद्धितप्रत्ययः अस्ति तत्र पूर्वस्यां शालायां भवः यः पूर्वस्यां शालायां भवति सः इति तद्धितप्रत्ययः अग्रे भवति तद् आश्रित्य पूर्वशाला एतयोः समासः क्रियते पूर्व इति दिग्वाचकः शब्दः शाला शब्दः उभयोः समासः क्रियते सामान्यतः केवलं यथा उत्तराः वृक्षाः तथा केवलं पूर्वाशाला इत्युक्ते समासः न भवति सा संज्ञा न द ईस्टर्न् अन् ईस्टर्न् शाला इत्युक्ते हाल् इस् काल्ड् शाला शाला इत्यस्य स्कूल् इत्यर्थः एव इति नास्ति पाठशाला एव स्कूल् किन्तु शाला इति सामान्यतः इट् इस् अ बिग् हाल् इट् कुड् बि अ चौल्ट्री आर् अ छत्रम् Anything is generally a shala. So, purva shala, tatra samjnana, it is just an eastern hall. Tatra samasaha na bhavati. Kintu, agre yadivayam tadhita pratyayam kurmaha, tada purva shala ityanayoho samasaha kriyate. Samasam krutva, tadhita pratyayam krutva, paurvashalaha iti rupam siddhyati. Asya prakriyam pashyamaha chedeva jnayate, agre darshayami. Atra karmadharaya samasaha asti, tadanantaram tadhita pratyayaha api bhavati, ubhayam bhavati. Uttarapade ityasya kaha arthaha, purva shala priya yasya saha. Iti samasaha. Kaha samasaha eshaha? Purva shala priya yasya saha. Ityatra kaha samasaha? Kopi vadati va samanyam idam. Purva shala priya yasya saha. Ayam kaha samasaha? Bahuvrihi samasaha. Purva shala priya yasya yatha pitam ambaram yasya saha pita ambaraha evam purva shala priya yasya saha iti bahuvrihi samasaha. Asmin samase trini padani santi bahuvrihi samasaha tripadasya tripada bahuvrihi asti padatrayasya api yugavad bhavati. Purva shala priya ityasti atra uttarapadam kim yada bahuvrihi samasaha kriyate tada uttarapadam kim? Uttarapadam nama kim? Samasasya charamavayavaha. The final portion of a samasa is called uttarapada. The first portion is called purvapada. The final, last portion is called uttarapada. Idani purvashala priya ityatra uttarapadam kim? Priya iti uttarapadam. Uttarapade pare. Yada agre uttarapadam bhavati. Arthat adau bahuvrihi samasam kurmaha. Tatra uttarapadam asti. Tada anayoho purvashala etayoho samasaha kriyate. Saha karmadharaya samasaha. Ataha atrati adau bahuvrihi samasaha. Anantaram karmadharaya samasaha. Iti dvayamapi kartavyam bhavati. Uttarapade pare. So when already a samasa has happened and there is an uttarapada, tada purvayoho padayoho samasaha bhavati anena sutrena tadhitartha uttarapada samaharecha ityanena. Purvashala priyaha iti samastapadam bhavati. Samahare digvachakanam samahare samasaha nasti. Etohi digvachakaha svabhavataha bhinnaha. So samaharaha nama sarvesham yugapat bhavanam. So samahara is a group where you are bringing things together. Directions by their nature are separate. They are inherently separate. If it is east, it is not west. You cannot combine east and west. Svabhavavashat tatra samasaha nasti. Evam digvachakanam tadhitarthe samasaha bhavati. Uttarapade samasaha bhavati. Sankhyavachakanam api arthatraye samasaha bhavati. Sankhyavachakanam tadhitarthe uttarapade samahare eshaha dvigu samasaha. Yathamaya uktam anena sutrena karmadharaya samasaha api diyate dvigu samasaha api diyate. Yatra digvachakanam samasaha bhavati saha karmadharayaha ityuchyate. Sankhyavachakanam eshu artheshu yaha samasaha saha dvigu samasaha ityuchyate. Aham idanimeva vadami dvigu samasasya vishayaha prathamavaram na avagamyate. So it will definitely seem confusing at the beginning. You have to listen to it twice or thrice to understand the vibhaga within. Okay? So don't get worried if it seems a bit overwhelming initially. Punah punah shruyate chet, punah punah pathamah chet, nishchayena avagamyate. Idani manena sutrena simuktam, digvachakanam sankhyavachakanam cha, arthatraye samasaha bhavati iti uktam, tatra digvachakanam samasaha karmadharaya samasaha. दिग्वाचकानां तद्धितार्थे समासः भवति, उत्तरपदे परे अपि समासः भवति, समाहारे समासः न भवति. संख्यावाचकानां तु अर्थत्रये अपि समासः भवति. एषः समासः द्विगुसमासः इति उच्यते. तद्धितार्थं पश्यामः. षण्णां मातॄणाम् अपत्यम्, एषः प्रसिद्धः. यथा दशरथस्य अपत्यं दाशरथिः, अपत्यार्थे तद्धितप्रत्ययः अस्ति. अत्र षण्णां मातॄणाम् अपत्यम् इत्यस्ति. अग्रे तद्धितप्रत्ययः भवति, केवलं षट् मातरः इत्युक्ते समासः न भवति, यतोहि षट् मातरः इति संज्ञा न. किन्तु अग्रे तद्धितार्थः यदि विवक्ष्यते तदा षट् मातृ एतयोः शब्दयोः द्विगुसमासः अनेन सूत्रेण क्रियते. तदा षाण्मातुरः इति पदं भवति. अत्र द्विगुसमासं कृत्वा तद्धितप्रत्ययं योजयित्वा षाण्मातुरः. कः षाण्मातुरः? कार्तिकेयः, स्कन्दः, कृत्तिकाः, षट् कृत्तिकाः मातरः. अतः षण्णां मातॄणाम् अपत्यम् इति तद्धितार्थे द्विगुसमासः भवति. उत्तरपदे परे अत्रापि आदौ बहुव्रीहिः. पञ्च गावः धनं यस्य सः, कश्चिद् मनुष्यः, तत्र समीपे पञ्च गावः सन्ति, ताः एव तस्य धनम्. अन्यत् किमपि धनं नास्ति, गृहं नास्ति, कृषिभूमिः नास्ति, पञ्च गावः सन्ति, ताः एव धनम्. पञ्च गावः धनं यस्य सः, अत्र बहुव्रीहिसमासः आदौ क्रियते, अनन्तरं धनम् इति उत्तरपदं बहुव्रीहौ. तस्मिन् परे पञ्च गो एतयोः शब्दयोः द्विगुसमासः क्रियते. अतः अत्र बहुव्रीहिसमासः आदौ, अनन्तरं द्विगुसमासः, पञ्च गवधनः इति रूपम्. समाहारः पञ्चानां गवां समाहारः, अ ग्रूप् आफ् फैव् कौस्, तस्मिन् अर्थे पञ्चगवम् इति भवति समाहारः. समाहारार्थे संख्यावाचकस्य समासः भवति अयं द्विगुसमासः. अत्र इदानीं व्यवस्था ज्ञाता. तद्धितार्थ उत्तरपदसमाहारे दिक्संख्ये समानाधिकरणेन समस्येते. तत्र दिग्वाचकानामपि भवति, संख्यावाचकानामपि भवति. इदानीं दिग्वाचकस्य एकैकशः समासं प्रक्रियां च पश्यामः. पूर्वस्यां शालायां भवः, अत्र आदौ किं भवति? पूर्वा शाला इत्यस्ति. अनयोः समासः क्रियते. पूर्वाशाला इति समासे जाते. सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः, इदं वार्तिकं गतवर्गेपि मया उक्तं. ये सर्वनामशब्दाः तेषां वृत्तौ, वृत्तिः कृत्तद्धितसमास एकशेष सनाद्यन्तधातुषु पुंवद् भावः. पुंवत् स्त्रीलिङ्गशब्दः अस्ति चेत् पुल्लिङ्गवत् रूपं भवति इत्यर्थः. पूर्वशाला, पूर्वाशाला इति आसीत्, पुंवद्भावे कृते पूर्वशाला इति भवति. तत्र तद्धितप्रत्ययः कः इति सूत्रं ददाति. तद्धितार्थे समासः पूर्वस्यां शालायां भवः इत्यत्र दिक् पूर्वपदात् असंज्ञायां ञः इति सूत्रमस्ति. इदं तद्धितसूत्रम्. दिक् पूर्वपदात् इति पञ्चमी, असंज्ञायाम् इति सप्तमी, ञः इति प्रथमा. शेषे इत्यधिकारः अस्ति, शैषिकाधिकारः तद्धितप्रत्ययेषु. तद्धिताः इत्यपि अधिकारः अस्ति. इदं विधिसूत्रं येन ञ इति प्रत्ययः, तद्धितप्रत्ययः विधीयते. अस्माद् भवाद्यर्थे ञः स्यात् असंज्ञायाम्. अस्मात् इत्युक्ते दिक्पूर्वपदात्, यस्मिन् समासे दिग्वाचकं पूर्वपदमस्ति, असंज्ञायां संज्ञा च नास्ति. पूर्वं दृष्टं यथा पूर्वेषु कामशमी इति संज्ञावाचकं, पूर्वशाला इति तु संज्ञावाचकं न. सो दिक्पूर्वपदात् असंज्ञायां ನ್ಯ ಇತಿ ಪ್ರತ್ಯಯಃ ಭವತಿ ಬಹುಷು ಅರ್ಥೇಷು ಭವತಿ ತತ್ರ ಭವಃ ಭವಃ ನಾಮ ತಸ್ಮಿನ್ ಸಹ ಭವತಿ ಇತ್ಯರ್ಥೆ ಪ್ರತ್ಯಯಃ ಭವತಿ ತದಾ ಕಿಂ ಭವತಿ ಅಸ್ಮಾಕಂ ಕಿಂ ಆಸೀತ್ ಪೂರ್ವಂ ಪೂರ್ವಶಾಲಾ ಇತ್ಯಸ್ತಿ ತತ್ರ ಹ್ರಸ್ವಃ ಭವತಿ ಉಪಸರ್ಜನತ್ವಾತ್ ಅನಂತರಂ ನ್ಯ ಇತಿ ಪ್ರತ್ಯಯಃ ಭವತಿ ಪೂರ್ವಶಾಲಾ ನ್ಯ ಸಾರಿ ಪೂರ್ವಶಾಲಾನ್ಯ ಅನಂತರಮೇವ ಹ್ರಸ್ವಃ ತದ್ಧಿತೇಷು ಅಚಾಮಾದೇಹೆ ಇತಿ ಅಪರಂ ಸೂತ್ರಮಸ್ತಿ ತದ್ಧಿತೇಷು ಸಪ್ತಮೀ ವಿಭಕ್ತಿಃ ಅಚಾಮ್ ಇತಿ ಷಷ್ಠೀ ಆದೇಹೆ ಇತಿ ಷಷ್ಠೀ ವೃದ್ಧಿಃ ಇತಿ ಪ್ರಥಮಾ ಇಣಿತಿ ಇತಿ ಸಪ್ತಮೀ ಅಚಃ ಇತಿ ಷಷ್ಠೀ ಅಂಗಸ್ಯ ಇತಿ ಷಷ್ಠಿ ಇದಂ ಬಹು ಪ್ರಸಿದ್ಧಂ ಸೂತ್ರಂ ಸರ್ವತ್ರ ವಯಂ ಪಶ್ಯಾಮಃ ದಶರಥಸ್ಯ ಅಪತ್ಯಂ ದಾಶರಥಿಃ ಕುಂತೇಹ ಅಪತ್ಯಂ ಕೌಂತೇಯಃ ವಿನತಾಯಃ ಅಪತ್ಯಂ ವೈನತೇಯಃ ಪ್ರಥಮಾಕ್ಷರಸ್ಯ ತದ್ಧಿತ ಪ್ರತ್ಯಯೇಷು ಬಹುಷು ತದ್ಧಿತ ಪ್ರತ್ಯಯೇಷು ಪ್ರಥಮ ಸ್ವರಸ್ಯ ವೃದ್ಧಿಃ ಭವತಿ ವೃದ್ಧಿಃ ಇತ್ಯುಕ್ತೆ ಆ ಐ ಔ ವೃದ್ಧಿರಾದೈಚ್ ಅಚಾಮ್ ಆದೇಹ ಅಚಃ ಫಾರ್ ದ ಫಸ್ಟ್ ಅಮಂಗ್ ದ ಸ್ವರ ಯೇ ಸ್ವರಾಹ ಸಂತಿ ಅಚಃ ತೇಷು ಪ್ರಥಮಸ್ಯ ಅಚಃ ವೃದ್ಧಿಃ ಭವತಿ ಇಣಿತಿ ಣಿತಿ ಣಿತಿ ಯತ್ರ ಪ್ರತ್ಯಯಃ ಣಿತ್ ಭವತಿ ಅಥವಾ ಣಿತ್ ಭವತಿ ಅಸ್ಮಾಕಂ ಇದಾನೀಂ ಪ್ರತ್ಯಯಃ ಅಸ್ತಿ ಣ್ಯ ಣ್ಯ ಇತ್ಯತ್ರ ಆದೇಹೆ ಣ್ಯಕಾರಸ್ಯ ಚುಟು ಇತ್ಯನೇನ ಇತ್ಸಂಜ್ಞಾ ಭವತಿ ಅತಃ ಇದಂ ವೃದ್ಧಿವಿಧಾನಂ ಇದಮೇವ ಆದಿವೃದ್ಧಿಃ ಇತಿ ಕಥ್ಯತೆ ತದ್ಧಿತೇಷು ಅತ್ಯಂತಂ ಪ್ರಸಿದ್ಧಂ ಭವತಿ ಆದಿವೃದ್ಧಿಃ ಣಿತಿ ಣಿತಿ ಚ ತದ್ಧಿತೇಷು ಅಚಾಂ ಆದೇರಸಃ ವೃದ್ಧಿಃ ಸ್ಯಾತ್ ಇತಿ ಸೂತ್ರಾರ್ಥಃ ಪೂರ್ವಶಾಲಾ ಅ ಇತ್ಯಸ್ತಿ ಣ್ಯ ಪ್ರತ್ಯಯಃ ತತ್ರ ಆದಿಃ ಇತ್ಯುಕ್ತೆ ಊಕಾರಃ ಊಕಾರಸ್ಯ ವೃದ್ಧಿಃ ಔಕಾರಃ ಪೌರ್ವಶಾಲಾ ಅ ಇತಿ ಭವತಿ ಅನೇನ ಸೂತ್ರೇಣ ತದ್ಧಿತೇಷ್ವಚಾಮಾದೇಹೆ ಇತೋಪಿ ಏಕಂ ಸೂತ್ರಮಸ್ತಿ ಪೂರ್ವಮೇವ ಅಧೀತಂ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದೀ ಕ್ರಮೇ ಪೂರ್ವಮೇವ ಅಸ್ತಿ ಯಸ್ಯೇತಿ ಚ ಯಸ್ಯ ಈತಿ ಚ ಲೋಪಃ ಇತಿ ಅನುವರ್ತತೆ ಯ ಇತ್ಯುಕ್ತೆ ಇ ಅ ಇ ಪ್ಲಸ್ ಅ ಇಸ್ ಯ ಯಸ್ಯ ಇತ್ಯುಕ್ತೆ ಇಕಾರಸ್ಯ ಅಕಾರಸ್ಯ ಚ ಈತಿ ಪರೆ ಈಕಾರೇ ತದ್ಧಿತೇ ಚ ಪರೆ ಲೋಪಃ ಭವತಿ ಭಸ್ಯ ಇವರ್ಣ ಅವರ್ಣಯೋಃ ಲೋಪಃ ಸ್ಯಾತ್ ಈಕಾರೇ ತದ್ಧಿತೇ ಚ ಪರೆ ಅತ್ರ ಪೌರ್ವಶಾಲಾ ಅ ಇತ್ಯಸ್ತಿ ಅತ್ರ ಅಕಾರಃ ಅಸ್ತಿ ತದ್ಧಿತ ಪ್ರತ್ಯಯೇ ಪರೆ ಅಸ್ಯ ಅಕಾರಸ್ಯ ಲೋಪಃ ಭವತಿ ಪೌರ್ವಶಾಲ ಅ ಪೌರ್ವಶಾಲ ಇತಿ ಭವತಿ ಪ್ರಕ್ರಿಯಾಂ ಪೂರ್ಣಂ ಪಶ್ಯಾಮಃ ಪೂರ್ವಸ್ಯಾಂ ಶಾಲಾಯಾಂ ಭವಃ ಅತ್ರ ಕಿಮಸ್ತಿ ಸಮಾಸಃ ಅಪಿ ಅಸ್ತಿ ತದ್ಧಿತಃ ಅಪಿ ಅಸ್ತಿ ತದ್ಧಿತಂ ವಿನಾ ಕೇವಲಃ ಸಮಾಸಃ ನ ಭವತಿ ಕಿಮರ್ಥಂ ತದ್ಧಿತಾರ್ಥೇ ಏವ ಸಮಾಸಃ ವಿಹಿತಃ ಅತಃ ಅಗ್ರೇ ತದ್ಧಿತಃ ಕರ್ತವ್ಯಃ ಏವ ತದ್ಧಿತಃ ಭವತಿ ಇತಿ ಜ್ಞಾತ್ವಾ ತತಃ ಪೂರ್ವಂ ಅಸ್ಮಾಭಿಃ ಸಮಾಸಃ ಕ್ರಿಯತೆ ಪೂರ್ವಾ ನಿ ಶಾಲಾ ನಿ ಪೂರ್ವಸ್ಯಾಂ ಶಾಲಾಯಾಂ ಇತ್ಯಸ್ತಿ ಅತಃ ಸಪ್ತಮ್ಯರ್ಥೆ ಅಥವಾ ಪೂರ್ವಾ ಶಾಲಾ ಪ್ರಥಮಾರ್ಥೆ ಅಪಿ ಕರ್ತುಂ ಶಕ್ಯತೆ ಸಾಮಾನಾಧಿಕರಣ್ಯಂ ಭವೇದ್ ಇತ್ಯೇವ ನಿಯಮಃ ತದ್ಧಿತಾರ್ಥೋತ್ತರಪರ ಸಮಾಹಾರೇ ಚ ಇತಿ ಸಮಾಸಃ ತತ್ರ ಸುಪೋಧಾತು ಪ್ರಾತಿಪದಿಕಯೋಃ ಇತ್ಯನೇನ ಸುಬ್ಲುಕಿ ಪೂರ್ವಾ ಶಾಲಾ ಇತಿ ಭವತಿ ಸರ್ವನಾಮ್ನೋ ವೃತ್ತಿಮಾತ್ರೇ ಪುಂವದ್ಭಾವಃ ಇತಿ ವಾರ್ತಿಕಂ ಪೂರ್ವಾ ಇತಿ ಸ್ತ್ರೀಲಿಂಗಮಾಸೀತ್ ತಸ್ಯ ಪೂರ್ವ ಇತಿ ಪುಲ್ಲಿಂಗವತ್ ರೂಪಂ ಭವತಿ ಅನೇನ ವಾರ್ತಿಕೇನ ಪೂರ್ವಶಾಲಾ ಪೂರ್ವಶಾಲಾ ಣ್ಯ ದಿಕ್ ಪೂರ್ವ ಪದಾದ್ ಅಸಂಜ್ಞಾಯಾಂ ಣ್ಯಃ ಇತಿ ಣ್ಯ ಪ್ರತ್ಯಯಃ ಕ್ರಿಯತೆ तद्धितप्रत्ययः एषः तद्धितप्रत्ययः तत्र चुटु इत्यनेन ण्यकारस्य इत्संज्ञा तस्य लोपः सो पूर्वशाला तद्धिते श्वचामादेः इत्यनेन पू इत्यत्र आदेः वृद्धिः पौर्वशाला अ यस्येति च इत्यनेन आकारस्य लोपः यस्य इत्यत्र अ इत्येव अस्ति अकारेण सर्वेषामपि अकाराणां ग्रहणं भवति अतः आकारस्य लोपे पौर्वशाल अ सु औजस् इत्यनेन सुप्रत्ययः ऋत्वं विसर्गः पौर्वशालः इति भवति अत्र तद्धितार्थोत्तरपदसमाहारे च इत्यनेन तद्धितार्थे पूर्वा इति दिग्वाचकस्य शाला इति समानाधिकरणेन सह समासः भवति अग्रे तद्धितप्रत्ययः भवार्थे ण्यप्रत्ययः भवति पौर्वशालः इति पदं तत्र वृत्तिद्वयमस्ति समासवृत्तिः तद्धितवृत्तिः यु केनाट् स्टाप् अट् जस्ट् द समास अवगतं वा केऽपि संशयाः सन्ति वा तत्र तद्धितार्थस्य एकम् उदाहरणं दत्तं लघुकौमुद्यां सर्वेषामपि उदाहरणं नास्ति अत्र यथा मया उक्तं षट् प्रभेदाः सम्भवन्ति दिग्वाचकस्य समाहारे नास्ति इत्यतः पञ्चप्रभेदाः सम्भवन्ति किन्तु लघुकौमुद्याम् उदाहरणद्वयमेव दीयते तद्धितार्थस्य उदाहरणमस्ति पौर्वशालः पूर्वस्यां शालायां भवः पौर्वशालः इति तद्धितार्थस्य उदाहरणम् उत्तरपदस्य उदाहरणं ददाति सङ्ख्यावाचकस्य उत्तरपदे परे सङ्ख्यावाचकस्य समासः पञ्च गावः धनं यस्य इति त्रिपदे बहुव्रीहौ आदौ अत्र त्रिपद बहुव्रीहिसमासः भवति पञ्च गावः धनं यस्य सः तदनन्तरं द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासवचनम् उत्तरपदे परे यः द्वन्द्वसमासः अथवा तत्पुरुषसमासः भवति सः नित्यं भवति तत्र आप्शन् नास्ति सामान्यतः अस्माकं समासः इत्युक्ते समस्तमपि उपयोक्तुं शक्नुमः व्यस्तमपि उपयोक्तुं शक्नुमः किन्तु उत्तरपदे परे यः समासः सः नित्यसमासः भवति इति एकं वार्तिकमस्ति पञ्चन् जस् गो जस् धन सु बहुपद बहुव्रीहिः भवति बहुव्रीहिसमासः अपि समानाधिकरणानामेव अतः सर्वाणि पदानि प्रथमाविभक्तौ भवन्ति पञ्चन् जस् गो जस् धन सुपोधातुप्रातिपदिकयोः इत्यनेन सुप्रत्ययस्य लोपे पञ्चन् गो धन इत्यस्ति अत्र धन इति उत्तरपदम् बहुव्रीहि समासः कृतः समासस्य चरमावयवः अन्तिमः अवयवः उत्तरपदम् धन इति उत्तरपदम् उत्तरपदे परे पूर्वयोः पञ्चन् गो एतयोः पदयोः द्विगुसमासः भवति तद्धितार्थ उत्तरपदसमाहारे च इत्यनेन द्विगुसमासः भवति उत्तरपदे परे समासः पञ्चन् गो अनन्तरं किं भवति किमर्थं समासः कर्तव्यः इति चेत् तत्र समासान्तप्रत्ययः षष्ठी उच्यते गोरतद्धितलुकि इति सूत्रमस्ति गोः इति पञ्चमी अतद्धितलुकि इति सप्तमी तच् इति अनुवर्तते अव्ययीभावसमासं स्मरामः चेत् अव्ययीभावे शवप्रभृतिभ्यः इत्यादिना टच् समासान्तः विधीयते अत्रापि टच् अस्ति राजाः सखिभ्यश्टच् इत्यनेन टच् इति अनुवर्तते तत्पुरुषस्य इत्यपि अनुवर्तते समासान्ताः तद्धिताः तत्पुरुषसमासे गोशब्दः अस्ति चेत् तस्य टच् इति समासान्तः भवति टच् इति समासान्तप्रत्ययस्य विधानं गोन्तात् तत्पुरुषात् टच् स्यात् समासान्तः न तु तद्धितलुकि तद्धितप्रत्ययस्य लुक् लोपः अस्ति चेत् समासान्तः न भवति तद्विषये इदानीं मास्तु गो शब्दः तत्पुरुषसमासस्य अन्ते अस्ति चेत् टच् इति समासान्तः भवति अतः पञ्चगवधनः यदि अयं द्विगुसमासः नास्ति तदा किं भवति पञ्चगोधनः इति रूपं भवेत् किन्तु द्विगुसमासः क्रियते तस्य तत्पुरुषत्वात् समासान्तः भवति पञ्चगवधनः इति रूपं सिद्ध्यति पञ्चगावः धनं यस्य सः अत्र बहुव्रीहिसमासः तदन्तर्गततया द्विगुसमासः पञ्चन् जस् गो जस् धन सु अनेकमन्यपदार्थे इत्यनेन बहुव्रीहिसमासः सुपोधातुप्रातिपदिकयोः इति सुब्लुकि पञ्चन् गो धन इदानीं तद्धितार्थोत्तरपदसमाहारे च इत्यनेन उत्तरपदे परे पञ्चन् गो एतयोः द्विगुसमासः अनेन सूत्रेण क्रियते द्विगुसमासे कृते द्विगुसमासस्य अन्ते टच् भवति यस्य समासस्य उक्तं तस्य समासस्य अन्ते अतः पञ्चन् गो गोशब्दादनन्तरं गोरतद्धितलुकि इत्यनेन टच् प्रत्ययः समासान्तः भवति पञ्चन् गो अ धन गो अ एचोयवायावः इत्यनेन अवादेशे पञ्चन् गव धन न लोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपे पञ्चगवधन सुप्रत्ययः तस्य ऋत्वविसर्गौ पञ्चगवधनः इति द्विगुसमासः सङ्ख्यावाचकस्य उत्तरपदे परे समासः अवगतं वा तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रमस्ति मया अर्थः उक्तः समानाधिकरणः तत्पुरुषः कर्मधारयसंज्ञकः भवति अनेन सूत्रेण कर्मधारयसंज्ञा विधीयते यस्मिन् तत्पुरुषसमासे पूर्व उत्तरपदौ समानाधिकरणौ समानाधिकरणौ इत्युक्ते समानविभक्तिकौ सः तत्पुरुषः कर्मधारयः इत्युच्यते यथा नीलमेघः नीलः मेघः नीलमेघः पूर्वा इषु कामशमी पूर्वेषु कामशमी सप्त ऋषयः सप्तर्षयः पूर्वस्यां शालायां भवः उभयत्रापि तत्र सप्तमी अथवा प्रथम एवं सामानाधिकरण्यं यत्र यत्र अस्ति तत्र सर्वत्र सः समासः कर्मधारयसमासः तर्हि द्विगु समासः नाम कः? संख्यापूर्वो द्विगुः इति द्विगु संज्ञा विधायकम्। संख्यापूर्वः इति एकवचनं, द्विगुः इत्यपि, अनेन द्विगु संज्ञा दीयते। द्विगु समासः कः? तद्धितार्थ इत्यत्र उक्तः त्रिविधः संख्यापूर्वः द्विगु संज्ञः स्यात्। सूत्रसंख्यां पश्यामः चेत् तद्धितार्थोत्तरपदसमाहारे च अनन्तरं संख्यापूर्वो द्विगुः। तेन सूत्रेण दिग्वाचकानां संख्यावाचकानां च समासः उक्तः। तत्र संख्यापूर्वः समासः द्विगुः। तद्धितार्थ इत्यत्र उक्तः त्रिविधः संख्यापूर्वः द्विगु संज्ञः स्यात्। तत्र व्यवस्थां ज्ञातुम् इदानीं दिग्वाचकाः शब्दाः सन्ति, संख्यावाचकाः शब्दाः सन्ति। दिग्वाचकानां संज्ञायां समासः भवति, तद्धितार्थे समासः भवति, उत्तरपदे भवति, समाहारे न भवति। यतोहि समाहारे नास्ति इति उक्तम्। संज्ञायां दिक्संख्ये संज्ञायाम् इत्यनेन समासः भवति, तद्धितार्थे उत्तरपदे भवति। संख्यावाचकानां संज्ञायां भवति, तद्धितार्थे उत्तरपदे समाहारे भवति। दिक्संख्ये संज्ञायाम् इत्यनेन संज्ञायां भवति, तद्धितार्थ उत्तरपदसमाहारे च। एवं समासः अस्ति। उभयोः मिलित्वा समासः उच्यते इत्यनेनैव क्लेशः। सूत्रद्वयेनापि दिग्वाचकानामपि समासः उच्यते, संख्यावाचकानामपि समासः उच्यते। सर्वमपि समानाधिकरणम्। All these samasas are samanadhikarana. By default, they are all should be called karmadharaya. Because tatpurushaha samanadhikaranaha karmadharayaha. Kintu vishishya kimuchyate, tadhitarthottarapada samaharecha ityatra sankhya purvaha. Ataha, ete trayaha samasaha, asya sankhya purvo dviguhu ityanena dvigusamya diyate. संख्यापूर्वो द्विगुः इज नॉट अ जनरल सूत्र। सामान्यतः संख्यापदं पूर्वत्र अस्ति चेत् द्विगुः इत्यर्थः न। तद्धितार्थोत्तरपदसमाहारे च इति सूत्रे, इति सूत्रेण यत्र समासः भवति तत्र संख्यापूर्वः द्विगुः। अन्यत् सर्वमपि समानाधिकरण्यात् तत्पुरुषः समानाधिकरणः कर्मधारयः। अतः पूर्वेषु कामशमी, पौर्वशालः, पूर्वशालाप्रियः, सप्तर्षयः, एतत् सर्वमपि कर्मधारय समासः। षाण्मातुरः, पञ्चगवधनः, पञ्चगवम् इति एतानि पदानि द्विगुसमासस्य उदाहरणानि। द्विगुसमासः इत्युक्ते तद्धितार्थः उत्तरपदं समाहारः वा भवेत् तदा एव द्विगु समासः। केवलं संख्या अस्ति चेत्, जस्ट संख्या अज विशेषण इज नॉट द्विगु समास, इट इज कर्मधारय समास। नवरसाः, दशावताराः, सर्वमपि कर्मधारयः एव। समाहारः अस्ति चेत् पञ्चानाम् अङ्गानां समाहारः, अष्टानाम् अध्यायानां समाहारः, अथवा उत्तरपदं तद्धितार्थः अस्ति चेत् तत्र द्विगु समासः। प्रश्नाः सन्ति वा? इतोपि अग्रे कश्चित् विषयः अस्ति समाहारद्विगुः, समाहारद्विगोः विषये। इदानीम् अस्माभिः किं दृष्टं? तद्धितार्थे पौर्वशालः इति उदाहरणं दृष्टम्, उत्तरपदे पञ्चगवधनः इति उदाहरणं दृष्टम्, षाण्मातुरः पञ्चगवम् इत्युभयं द्रष्टव्यम्। शुड् वि टेक् इट् टुडे आर् शेल् वि टेक् इट् इन् द नेक्स्ट् क्लास्? इफ् यु वाण्ट् सम् टैम् टु digest this, we can continue in the next class, or if it is okay, we'll continue. किमर्थं पृच्छ्यते? यदि अयं विषयः प्रथमवारं श्रूयते तर्हि अवगमने समयः अपेक्ष्यते, अतः अवगत्य अग्रे गच्छामः इति चेत् अग्रिमवर्गे अनुवर्तयामः. तर्हि एतत् पश्यन्तु, कृपया पुनरेकवारम् एतं वर्गं पश्यन्तु, तदा एव द्विगोः कर्मधारयस्य विषये विवेकः, कुत्र द्विगुः कुत्र कर्मधारयः, द्विगुसमासः इत्युक्ते कः अर्थः इति ज्ञायते. अग्रिमवर्गे पुनः पुनरावर्तनं कृत्वा अग्रे गच्छामः. अद्य अभ्यासः नास्ति, केवलम् अस्य वर्गस्य पुनः अवलोकनं कृत्वा अस्मिन् विषये इट्स् गुड् इफ् यु गेट् सम् क्लारिटि आन् द्विगु अण्ड् कर्मधार दिस् दिक्संख्ये संज्ञायाम् अण्ड् तद्धितार्थोत्तरपदसमाहारे च. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्.